तथा महामना बृहत्कस्य होदर्जज्ञम् जोषाणो अभिसो ममूधाः पिबन्नुषाणो जुषमानो अन्धो ववक्ष विश्वस्सु जते धनाय को अस्य वीरस्य धमादमापसमानम् सुमतिभिः को अस्य तदस्य चित्रम् चेकितेकदूते मृधे भूवच्छसमानस्य यज्ञोः कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवासामस्य वेद का अस्य भूर्वीरुपमातयोः कथेन माहुप्पूरिम् चरित्रे कथा समाधस्य समानो अस्य न सदभिद्रवीणम् दीध्यानः देवो भूवन्नवेदामृतानाम् रमोजगृभ्वाम् अभियज्जुजोषत् तथागतस्य उषसोऽव्योष्टौ देवो मत्तस्य सख्यम् जूजोष तथागतस्य सख्यम् सजुभ्योजे अस्मिन् कामम् सुयुजम् तदस्रे इमादमत्रम् सख्यम् सखिभ्यः कदानुजे भ्रात्रम् रब्रवाम श्रिये सुदृशोपूरस्य दर्गा स्वा अन्नचित्रतामविषागोः गृहम् जिघाम् सन्धरतामनिन्द्राम् वेदिक्ते दिग्मा द्विजसे अनीका ऋणादित्यत्र ऋणयान भुग्रो दूरे अज्ञाता उषसोपबाधे ऋणस्य हि सुहृदः सन्ति पूर्वेर्वृतस्य धीतिर्वृजिनानि हन्ति ऋणस्य श्लोको बधिरात दर्दकर्णा बुधानः सृजमान आयोः ऋतस्य दृढा धरुणानि सन्ति पुरूणि चन्द्रावपूषे वपूंषि ऋतेन दीर्घमेषणन्तवृक्ष ऋतेन गावऋतमामीवेषुः ऋतये मानऋतमिद्वानो ऋतस्य दृष्पस्तु रजावो गव्योः ऋताय पृथ्वी बहुरे गभीरे ऋताय धेनुपरमे दुहाते नोष्टुत इन्द्रनो गृहानयिषम् चरित्रे नद्यो ओनपीपेः अकारिते हरिभो ब्रह्मनव्यम् धिया स्यामरथ्यः सदासाः